ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। श्रीशुक उवाच। मान्धातुः पुत्र प्रवरो योऽम्बरीषः प्रकीर्तितः, पितामहेन प्रवृतो यौवनाश्वश्च तत्सुतः। हारीतस्तस्य पुत्रो भून्मान्धातृप्रवरा इमे, नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः। तया रसा तदम् नीतो भुजगेन्द्रप्रयुक्तया, गन्धर्वानवधीत्तत्र वध्यान्वै विष्णुशक्तिधृक्। नागाल्लब्धवर सर्पादभयम् स्मरतामिदम्। त्रसद्दस्युः पौरुकुत्सो यो नरण्यस्य देहकृत्। हर्यश्वस्तत्सुतस्तस्मादरुणोऽथ त्रिबन्धनः। तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः, प्राप्तश्चाण्डालताम् शापाद् गुरुः कौशिकतेजसा। सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते, पातितो वाक्षिरादेवैस्तेनैव स्तम्भितो बलात्। त्रयीशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः, यन्निमित्तमभूद् युद्धम् पक्षिणोर्बहुवार्षिकम्। सोनपत्यो विषण्णात्मा नारदस्योपदेशतः, वरुणम् शरणम् यातः पुत्रो मे जायताम् प्रभो। यदि वीरो महाराज तेनैव त्वाम् यजे इति, तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः। जातसुतो यनेनाङ्ग माम् यजस्वेति सोऽब्रवीत्। यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति, निर्दशे च स आगत्य यजस्वेत्याह सोऽब्रवीत्। दन्तः पशोर्यज्जायेरन्नथ मेध्यो भवेदिति, जाता दन्ता यजस्वेति सप्रत्याह च सोऽब्रवीत्। यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति, पशोर्निपतिता दन्ता यजस्वेत्याह सोऽब्रवीत्। यदा पशोः पुनर्दन्ता जायन्तेऽथ पशुः शुचिः, पुनर्जाता यजस्वेति सप्रत्याहात सोऽब्रवीत्। सान्नाहिको यदा राजन् राजन्योऽथ पशुः शुचिः इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा, कालम् वञ्चयता तम् तम् उक्तो देवस्तमैक्षत। रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम्, प्राणप्रेप्सुर्धनुष्पाणिरण्यम् प्रत्यपद्यत। पितरम् वरुणग्रस्तम् श्रुत्वा जातमहोदरम्, रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत। भूमेः पर्यटनम् पुण्यम् तीर्थक्षेत्रनिषेवणैः, रोहिताया दिशच्छक्रः सोऽप्यरण्ये वसत्समाम्। एवम् द्वितीये तृतीये चतुर्थे पञ्चमे तथा अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रः। षष्ठम् संवत्सरम् तत्र चरित्वा रोहितः पुरीम्, उपव्रजन्न जीगर्ता दक्रीणान् मध्यमम् सुतम्। शुनश्रेपम् पशुम् पित्रे प्रदाय समवन्दत, ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः। मुक्तोदरो यजद्देवान् वरुणादीन् महत्कथः, विश्वामित्रो भवत्तस्मिन् होता चाध्वर्युरात्मवान्। जमदग्निरभूद् ब्रह्मा वसिष्ठो यास्य सामगः, तस्मै तुष्टो ददाविन्द्रः शातकौम्भमयम् रथम्। शुनः श्रेपस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते, सत्यसाराम् धृतिम् दृष्ट्वा सभार्यस्य च भूपतेः। विश्वामित्रो भृशम् प्रीतो ददावविहताम् गतिम्, मनः पृथिव्याम् तामद्भिस्तेजसापो निलेन तत्। खे वायुम् धारयन्स्तच्च भूतादौतम् महात्मनि, तस्मिन् ज्ञानकलाम् ध्यात्वा तया ज्ञानम् विनिर्दहन्, हित्वा ताम् स्वेन भावेन निर्वाणसुखसंविदा। अनिर्देश्या प्रतर्क्येण तस्थौ विध्वस्तबन्धनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे हरिश्चन्द्रोपाख्यानम् नाम सप्तमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।